अथ सिद्ध सरस्वती स्तोत्रम् सौन्दर्यमाधुर्य सुधा समुद्र विनेत्र पद्मासन सन्निविष्टाम् चञ्चद्विपञ्चीकलनाद मुग्धा शुद्धाम् दधेन्तल् विसरत् सुगन्धाम् श्रुतिस्मृतिस्तत्पद पद्मगन्धी प्रभामयम् वाङ्मयमस्तपारम् यत्कोणकोणाभिनिविष्टमिष्टम् तामम्बिकाम् सर्वसिताम् श्रुता स्म न कान्दिशीकम् प्रवितोति वेलम् तम् कौशिकम् संस्पृहये निशातम् सावित्रसारस्वत धाम पश्यम् शस्यम् तपो ब्राह्मणमाद्रियेतम् श्रीशारदाम् प्रार्थित सिद्ध विद्याम् श्रीशारदाम् भोजसगोत्र नेत्राम् श्रीशारदाम् भोज निवीज्यमानाम् श्रीशारदाङ्कानुजनिम् भजामि चक्राङ्गलाजाञ्चित पाद पद्माम् पद्मालयाभ्यर्थित सुस्मित श्री स्मितश्रिया वर्षित सर्वकामा वामा विधे पूरयताम् प्रियन्ना बाहोरमाया किल कौशिकौसौ हंसो भवत्या प्रथितो विविक्ता जगद्विधातुर्महिषीम् त्वमस्मान् विधेहि सभ्यान्न हि मातरिभ्याम् स्वच्छव्रत स्वच्छचरित्र चुञ्चु स्वच्छान्तर स्वच्छ समस्तवृत्ति स्वच्छम् भवत्या प्रपदम् प्रपन्न स्वच्छे त्वयि ब्रह्मणि जातु यातु रवीन्दुवह्निद्युतिकोटिदीप्तम् सिंहासनम् सन्तत वाद्यगानम् विदीपयन्मातृकधाम यामः कारुण्यपूर्णामृतवारिवाहम् शुभ्राम् शुभ्रसरोजमुग्धवदनाम् शुभ्राम्बरालङ्कृताम् शुभ्राङ्गिम् शुभसभ्रहास्य विशदाम् शुभ्रस्रगाशोभिनीम् शुभ्रोद्दामललाम धाम महिमाम् शुभ्रान्तरङ्गागताम् शुभ्राभाम्भयहारिभावभरिताम् श्रीभारतीम् भावये मुक्तालङ्कृतकुन्तलान्तसरणिम् रत्नालिहारावलिम् काञ्चीकान्तवलग्नलग्नवलयाम् वज्राङ्गुलीयाङ्गुलिम् लीलाचञ्चललोचनाञ्चलचलल्लोकेशलोलालकाम् कल्यामाकलयेति वेलमतुलाम् वित्कल्पवल्लीकलाम् प्रयतो धारयेद्यस्तु सारस्वतमिमम् स्तवम् सारस्वतम् तस्य महाप्रत्यक्षमचिराद् भवेत् वाग्बीजसम्पुटम् स्तोत्रम् जगन्मातुप्रसादजम् शिवालये जपन्मर्त्य प्राप्नुयाद्बुद्धिवैभवम् सूर्यग्रहे प्रजपितस्तव सिद्धिकरः परः वाराणस्याम् पुण्यतीर्थे सद्यो वाञ्छितदायकः पादाम्भोजे सरस्वत्या शङ्कराचार्यभिक्षुणा काशीपीठाधिपतिना गुम्फिता सत्समर्पिता इति काशीपीठाधीश्वर जगद्गुरु शङ्कराचार्य स्वामी श्रीमहेश्वरानन्द सरस्वती विरचितम् सिद्ध सरस्वती स्तोत्रम् समाप्तम्।